तद्गौरवान् मंगलमंडन श्रीः सा पस्पृशे केवलमीश्वरेण स एव वेशः परिणेतुरिष्टम् भावांतरं तस्य विभोः प्रपेदे
तदिति ईश्वरेण शिवेन सा मंगलमंडनश्रीः शुभप्रसाधनसंपत् तद्गौरवात् तासु मातृषु आदरात् केवलं पस्पृशे स्पृष्टा एव न तु दध्रे इत्यवधारणार्थः केवलशब्दः केवलं चावधारणे इति शाश्वतः किन्तु तस्य विभोः देवस्य सह एव वेषः स्वाभाविकः भस्मकपालादिवेश एव परिणेतुः लोके उद्वोढुः इष्टम् अपेक्षितम् भावांतरं रूपांतरं प्रपेदे अंगरागादि रूपतां प्राप इत्यर्थः
बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः उपान्तभागेषु च रोचनाङ्कः गजाजिनस्यैव दुकूलभावः
बभूवेति भस्मैव सिताङ्गरागः शुभ्रगन्धानुलेपनं बभूव कपालमेव अमलं शेखरं शिरोभूषणं तस्य श्रीः शोभा बभूव गजाजिनस्यैव उपान्तभागेषु अञ्चलप्रदेशेषु रोचनैव अङ्कः हंसादिचिह्नं यस्य सः तथोक्तः दुकूलभावः पट्टांशुकत्वञ्च बभूव भस्मादिकमेव अङ्गरागादिभावं प्राप्तमित्यर्थः
शङ्खान्तरद्योति विलोचनं यत् अन्तर्निविष्टामलपिङ्गतारम् सान्निध्यपक्षे हरितालमय्याः तदेव जातं तिलकक्रियायाः
शङ्खेति शङ्खान्तरे ललाटास्थिमध्ये द्योतते इति तथोक्तम् शङ्खो निधौ ललाटास्थ्नि इत्यमरः अन्तर्निविष्टा मध्यगता अमला पिङ्गा तारा कनीनिका यस्य तत्तथोक्तम् तारकाक्ष्णः कनीनिका इत्यमरः यद्विलोचनम् तत् विलोचनमेव हरितालमय्या वर्णद्रव्यविशेषविकारस्य तिलकक्रियायाः तिलकरचनायाः सन्निधिरेव सान्निध्यम् तदेव पक्षः साध्यम् पक्षः पार्श्वगरुत्साध्य सहायबलभित्तिषु इति यादवः तस्मिन् सान्निध्यपक्षे जातम् प्रविष्टमित्यर्थः अनेन ललाटलोचनमेव तस्य हरितालतिलकम् अभूदित्युक्तम्
यथा प्रदेशं भुजगेश्वराणां करिष्यताम् आभरणान्तरत्वम् शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः
यथेति यथा प्रदेशं प्रदेशान् कोष्ठादीन् अनतिक्रम्य आभरणान्तरत्वम् कङ्कणाद्याभरणविशेषत्वम् करिष्यताम् सम्पादयिष्यताम् भुजगेश्वराणाम् शरीरमात्रम् शरीरमेव వికృతిం రూపాంతరం ప్రపేదే ఫణరత్న శోభాః తథైవ తస్థుః తాసాం తథైవ ఉపాదేయత్వాదితి భావః
దివాపి నిష్ఠ్యూత మరీచి భాసా బాల్యాదనావిష్కృత లాంఛనేన చంద్రేణ నిత్యం ప్రతిభిన్న మౌలేః చూడామణేః కింగ్రహణం హరస్య
దివాపీతి దివా దినే అపి నిష్ఠ్యూత ఉద్గీర్ణ మరీచిభాసః కిరణకాంతయః యస్య తేన బాల్యాత్ అల్పతనుత్వాత్ అనావిష్కృతలాంఛనేన అదృశ్యమాన కలంకేనేత్యర్థః చంద్రేణ నిత్యం సర్వదా ప్రతిభిన్నమౌలేః సంగతముకుటస్య హరస్య చూడామణేః గ్రహణం స్వీకారః కిం కిమర్థం చంద్రచూడామణేః దేవస్య కిం అన్యైః చూడామణిభిరితి భావః
ఇత్యద్భుతైక ప్రభవః ప్రభావాత్ ప్రసిద్ధ నేపథ్య విధేర్విధాత ఆత్మానమాసన్న గణోపనీతే ఖడ్గే నిషక్త ప్రతిమం దదర్శ
ఇతీతి ఇతి ఇత్థం ప్రభావాత్ సామర్థ్యాత్ ప్రసిద్ధస్య నేపథ్య విధేహే వేష సంవిధానస్య విధాత నిర్మాత అత ఏవ అద్భుతానాం ఆశ్చర్యాణాం ఏక ప్రభవః ముఖ్యనిధిః సః దేవః ఆసన్నగణేన పార్శ్వస్థవర్గేణ ప్రమథగణేనేత్యర్థః ఉపనీతే ఆనీతే ఖడ్గే నిషక్తప్రతిమం సంక్రాంతప్రతిబింబం ఆత్మానం దదర్శ వీరపురుషాణాం ఏషః ఆచారః
స గోపతిం నందిభుజావలంబీ శార్దూలచర్మాంతరితోరుపృష్ఠం తద్భక్తి సంక్షిప్త బృహత్ ప్రమాణం ఆరుహ్య కైలాసమివ ప్రతస్థే
స ఇతి సః దేవః నందిభుజావలంబీ నందికేశ్వర భుజావలంబనః సన్ శార్దూలచర్మణా వ్యాఘ్రచర్మణా అంతరితం ఆచ్ఛాదితం ఉరు విశాలం పృష్ఠం యస్యతం తథోక్తం శార్దూలద్వీపినౌ వ్యాఘ్రే ఇత్యమరః తస్మిన్ దేవే భక్త్యా సంక్షిప్తం సంకోచితం బృహత్ప్రమాణం యస్యతం గోపతిం వృషభం కైలాసం ఇవ ఆరుహ్య ప్రతస్థే చచాల
తం మాతరో దేవమనువ్రజంత్యః స్వవాహనక్షోభచలావతంసాః ముఖైః ప్రభామండలరేణుగౌరైః పద్మాకరం చక్రురివాంతరీక్షం
తమితి తం దేవం అనువ్రజంత్యః అనుగచ్ఛంత్యః స్వవాహనానాం క్షోభేణ ప్రకంపేణ చలావతంసాః చలకుండలాః మాతరః సప్తమాతృకాః ప్రభామండలాన్యేవ రేణవః పరాగాః తైః గౌరైః అరుణైః గౌరోరుణే సితే పీతే ఇతి యాదవః ముఖైః అంతరిక్షం ఆకాశం పద్మాకరం ఇవ చక్రుః
తాసాం చ పశ్చాత్ కనకప్రభాణాం काली कपालाभरणा चकासे बलाकिनी नीलपयोदराजी दूरं पुरः क्षिप्तशतह्रदेव
तासामिति कनकप्रभाणां सुवर्णवर्णानां तासां मातॄणां पश्चात् कपालाभरणा सितकपालालङ्कारा इत्यर्थः काली महाकाली देवी च कृष्णवर्णत्वसूचनाय कालीसंज्ञयाभिधानम् बलाकिनी बलाकावती व्रीह्यादित्वात् इनिः दूरं यथा तथा पुरः अग्रे क्षिप्ताः प्रसारिताः शतह्रदाः विद्युतः यस्यास्सा तथोक्ता नीलपयोधराजी कालमेघपङ्क्तिः इव चकासे
ततो गणैः शूलभृतः पुरोगैः उदीरितो मङ्गलतूर्यघोषः विमानशृङ्गाण्यवगाहमानः शशंससेवावसरं सुरेभ्यः
तत इति ततः अनन्तरं शूलभृतः शिवस्य पुरः गच्छन्तीति पुरोगैः अग्रेसरैः अन्यत्रापि दृश्यते इति वक्तव्यम् इति गमेर्डप्रत्ययः गणैः प्रमथैः उदीरितः उत्पादितः मङ्गलतुर्यघोषः मङ्गलवाद्यध्वनिः विमानशृङ्गाणि अवगाहमानस्सन् सुरेभ्यः विमानस्थेभ्यः सेवावसरं शशंस सुराः प्रस्थानतूर्यध्वनिम् आकर्ण्य अयमेव नः सेवावसरः इति आजग्मुः इत्यर्थः
उपाददे तस्य सहस्ररश्मिः त्वष्ट्रान्नवम् निर्मितमातपत्रम् सतद्दुकूलादविदूरमौलिः बभौ पतत् गङ्ग इवोत्तमाङ्गे
उपादद इति तस्य हरस्य सहस्ररश्मिः सूर्यः त्वष्ट्रा विश्वकर्मणा निर्मितम् नवम् आतपत्रम् उपाददे धृतवानित्यर्थः उत्प्रेक्षते तद्दुकूलात् तस्य आतपत्रस्य प्रान्तलम्बिनः दुकूलात् अविदूरमौलिः तद्दुकूलस्य आसन्नमौलिरित्यर्थः सः हरः उत्तमाङ्गे शिरसि उत्तमाङ्गम् शिरःशीर्षम् इत्यमरः पतन्ती गङ्गा यस्य सः पतद्गङ्गः इव बभौ तद्दुकूलादित्यत्र दूरान्तिकार्थैः षष्ट्यन्यतरस्याम् इति दूरार्थयोगे विकल्पेन पञ्चमी नाथेन उक्तम् अन्यारात् इत्यत्र आराच्छब्दस्य अर्थग्रहणार्थत्वात् पञ्चमीति तदनाकरम् किञ्च अस्य शास्त्रोक्तविकल्पापवादत्वात् दूरं ग्रामस्य इत्यादि षष्ठीप्रयोगो दूरापास्तः स्यात् इति उपेक्षणीयमेव
मूर्ते च गङ्गा यमुने तदानीम् स चामरे देवमसे विशाताम् समुद्रगारूपविपर्ययेऽपि स हंसपाते इव लक्ष्यमाणे
मूर्ते इति गङ्गा च यमुना च गङ्गायमुने मूर्ते विग्रहधारिण्यौ सचामरे चामरसहिते सत्यौ अत एव समुद्रगा नदी तस्याः रूपं स्वरूपं तस्य विपर्ययेपि अभावेपि सः हंसपातेन हंसचारेण वर्तेते इति सहसंपाते इव तेन सहेति तुल्ययोगे इति बहुव्रीहिः वोपसर्जनस्य इति सभावः लक्ष्यमाणे दृश्यमाने सत्यौ तदानीं विवाहसमये देवं असेविषाताम् अभजताम् सेवतेर्लुङ् गङ्गायमुने चामरग्राहिण्यौ देवं उपतस्थतुः इत्यर्थः
तमभ्यगच्छत् प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् जयेति वाचा महिमानमस्य संवर्धयन्तौ हविषेव वह्निम्
तमिति प्रथमः आद्यः विधाता चतुर्मुखः तथा श्रीवत्सलक्ष्मा श्रीवत्साङ्कः पुरुषः विष्णुश्च साक्षात् तं देवं अभ्यगच्छत् सम्मुखम् आययौ किं कुर्वन्तौ जयेति वाचा जयशब्देन अस्य ईश्वरस्य महिमानं महत्त्वं हविषा वह्निमिव संवर्धयन्तौ वृद्धिं गमयन्तौ
एकैव मूर्तिर्बिभिदे त्रिधासा सामान्यमेषां प्रथमावरत्वम् विष्णोर्हरस्तस्य हरिः कदाचित् वेधास्तयोस्तावपि धातुराद्यौ
एकैवेति सा एकैव मूर्तिः त्रिधा ब्रह्मविष्णुशिवात्मकत्वेन बिभिदे औपाधिकः अयं भेदः न वास्तविक इत्यर्थः अत एव एषां त्रयाणां प्रथमावरयोः भावः प्रथमावरत्वं ज्येष्ठकनिष्ठभावः सामान्यं साधारणम् इच्छया सर्वे ज्येष्ठाः भवन्ति कनिष्ठाश्च इत्यर्थः एतदेव विवृणोति कदाचित् हरः विष्णोः आद्यः कदाचित् हरिः तस्य आद्यः कदाचित् वेधाः तयोः हरिहरयोः आद्यः कदाचित् तौ हरिहरावपि धातुः स्रष्टुः आद्यौ एवम् एतेषाम् पौर्वापर्यम् अनियतमिति दर्शितम्
तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः दृष्टिप्रदाने कृतनन्दिसंज्ञाः तद्दर्शिताः प्राञ्जलयः प्रणेमुः
तमिति पुरुहूतमुख्याः इन्द्रादयः लोकपालाः श्रीलक्षणानाम् ऐश्वर्यचिह्नानाम् छत्रचामरवाहनानाम् उत्सर्गेण त्यागेन विनीतवेषाः अनुनीतवेषास्सन्तः तथा दृष्टिप्रदाने दर्शननिमित्ते दर्शनप्रदानार्थम् इत्यर्थः कृता नन्दिनः प्रतीहारस्य संज्ञा सङ्केतः यैः तादृशाः मम दर्शनम् दापयेति नन्दिनम् प्रति कृतहस्तादिसूचना इत्यर्थः संज्ञास्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना इत्यमरः तद्दर्शिताः तेन नन्दिना दर्शिताः अयम् इन्द्रः प्रणमति अयम् चन्द्रः इत्याद्युक्तिपूर्वकम् निवेदिताः प्राञ्जलयः कृताञ्जलयः सन्तः तम् भवम् प्रणेमुः प्रणताः।